ओम नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः। राजोवाच येन येनावतारेण भगवान् हरिरीश्वरः करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो यच्छिण्वतोपैत्यरतिर्वितृष्णा सत्त्वं च शुद्ध्यत्यचिरेण पुंसः भक्तिर्हरौ तत्पुरुषे च सख्यं तदेवहारं वद मन्यसे चेत्। अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम् मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः। श्रीशुक उवाच कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् वादित्रगीतद्विजमन्त्रवाचकैश्चकारसूनोरभिषेचनम् सति नन्दस्य पत्नी कृतमज्जनादिकम् विप्रयी कृतस्वस्त्ययनम् सुपूजितैः। अन्नाद्यवासः स्रगभीष्टधेनुभिः सञ्जातनिद्राक्षमशीषयच्छनैः औत्थानिका उत्सुक्यमना मनस्विनी समागतान् पूजयति व्रजौकसः। नैवाशृणोद्वैरुदितम् सुतस्य सा रुदन्स्तनार्थी चरणावुदक्षिपत्। अध शयानस्य शिशोरनोल्पकप्रवालमृद्वङ्घ्रिहतम् व्यवर्तत। विध्वस्तनानारसकुप्यभाजनम् व्यत्यस्तचक्राक्षविभिन्नकूबरम् दृष्ट्वा यशोदा प्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः। नन्दादयश्चाद्भुतदर्शनाकुला कथम् स्वयम् वै शकटम् विपर्यगात्। ऊचुरव्यवसितमतीन् गोपान् गोपीश्च बालकाः रुदतानेन पादेन क्षिप्तमे तन्न संशयः। न ते शब्दधिरे गोपा बालभाषितमित्युत अप्रमेयम् बलम् तस्य बालकस्य न ते विदुः। रुदन्तम् सुतमादाय यशोदाग्रहशङ्किता कृतस्वस्त्ययनम् विप्रैः सूक्तैस्तनमपाययत्। पूर्ववत् स्थापितम् गोपैर्बलिभिः सपरिच्छदम् विप्राहुत्वार्चयाञ्चक्रुर्दध्यक्षतकुशाम्बुभिः। ये सूयानृतदम्भेर्ष्या हिंसामानविवर्जिताः न तेषाम् सत्यशीलानामाशिषो विफलाः कृताः। इति बालकमादाय सामर्ग्यजुरुपाकृतैः जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः वाचयित्वा स्वस्त्ययनम् नन्दगोपः समाहितः। हुत्वा चाग्निम् द्विजातिभ्यः प्रादादन्नम् महागुणम् गावः सर्वगुणोपेता वासः स्रग्रुक्ममालिनीः आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत। विप्रामन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथा शिशः ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम्। एकदारोहमारूढम् लालयन्ति सुतम् सति गरिमाणम् शिशोर्वोढुम् न सेहे गिरिकूटवत्। भूमौ निधायतम् गोपी विस्मिता भारपीडिता महापुरुषमादध्यौ जगता मासकर्मसु। दैत्यो नाम्ना त्रिणावर्तः कंसभृत्यः प्रणोदितः चक्रवातस्वरूपेण जहारासीनमर्भकम्। गोकुलम् सर्वमावृण्वन् मुष्णंश्चक्षूंसिरेणुभिः ईरयन् सुमहाघोरशब्देन प्रदिशो दिशः। मुहूर्तमभवद्गोष्ठम् रजसा तमसावृतम् सुतम् यशोदा नापश्यत् तस्मिन्न्यस्तवतीयतः। नापश्यत् कश्चनात्मानम् परम् चापि विमोहितः तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः। इति खरपवनचक्रपांसुवर्षे सुतपदवीमबलाविलक्ष्य माता अतिकरुणमनुस्मरन्त्यशोचत् भुवि पतिता मृतवत्सका यथा गौः। रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः रुरुदुरनुपलभ्यनन्दसूनुम् पवन उपारतपांसुवर्षवेगे। तृणावर्तः शान्तरयो वात्यारूपधरो हरन् कृष्णम् नभो गतो गन्तुम् नाशक्नोत् भूरिभारभृत्। तमस्मानम् मन्यमान आत्मनो गुरुमत्तया गले गृहीत उत्स्रष्टुम् नाशक्नोदद्भुतार्भकम्। गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः अव्यक्तरावो न्यपतत् सह बालो व्यसुर्व्रजे। तमन्तरिक्षात् पतितम् शिलायाम् विशीर्ण सर्वावयवम् करालम्। पुरम् यथा रुद्रशरेण विद्धम् स्त्रियो रुदत्यो ददृशुः समेताः प्रादाय मात्रे प्रतिहृत्य विस्मिता कृष्णम् च तस्योरसि लम्बमानम्। तम स्वस्तिमन्तं पुरुषादनीतं विहाय सा मृत्युमुखात् प्रमुक्तं गोप्यश्च गोपा किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात् पुनः हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद् विमुच्यते किं नस्तपश्चीर्णमधोक्षजार्चनम् पूर्तेष्टदत्तमुत भूतसौहृदम् यत्सम्परेतः पुनरेव बालको दृष्ट्या स्वबन्धून् प्रणयन्नुपस्थितः दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने वसुदेव वचो भूयो मानयामास विस्मितः एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी प्रश्नुतम् पाययामास स्तनम् स्नेहपरिप्लुता पीतप्रायस्य जननी सा तस्य रुचिरस्मितम् मुखम् लालयति राजञ्जृम्भतो ददृशे इदम् खम् रोदसी ज्योतिरनीकमाशा सूर्येन्दुवन्निश्वसना बुधींश्च द्वीपान्नगांस्तद्दुहितृर्वनानि भूतानि यानि स्थिरजङ्गमानि सावीक्ष्य विश्वम् सहसा राजन् सञ्जातवे पथुः सम्मील्य मृगसा वाक्षी नेत्रे आसीत् सुविस्मिता ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।